ओम नमो भगवते वासुदेवाय। अथ सप्तदशोऽध्यायः। मैत्रेय उवाच, एवं स भगवान् वैन्यः ख्यापितो गुणकर्मभिः, छन्दयामास तान् कामैः, प्रतिपूज्याभिनन्द्य च ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधसः, पौराञ्जानपदान् श्रेणीः प्रकृतिः समपूजयत्। विदुर उवाच, कस्माद्दधारगोरूपम् धरित्री बहुरूपिणी, याम् दुदोह पृथुस्तत्र को वत्सो दोहनम् च किम्, प्रकृत्या विषमा देवी कृता तेन समा कथम्, तस्य मेध्यम् हयम् देवः कस्य हेतोरपाहरत्। सनत्कुमारात् भगवतो ब्रह्मन् ब्रह्मविदुत्तमात्, लब्ध्वा ज्ञानम् स विज्ञानम् राजर्षिः काम् गतिम् गतः। यच्चान्यदपि कृष्णस्य भवान् भगवतः प्रभोः, श्रवशुश्रवसः पुण्यम् पूर्वदेहकथाश्रयम्, भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च, वक्तुमरसि यो दुह्यद्वैन्यरूपेण गामिमाम्। सूत उवाच, चोदितो विदुरेणैवम् वासुदेवकथाम् प्रति, प्रशस्यतम् प्रीतमना मैत्रेयः प्रत्यभाषत। मैत्रेय उवाच, यदाभिषिक्तः पृथुरङ्गविप्रैरामन्त्रितो जनतायाश्च पालः, प्रजानिरण्यक्षितिपृष्ठयेत्य क्षुत्क्षामदेहाः पतिमभ्यवोचन्, वयम् राजञ्जाठरेणाभितप्ता यथाग्निना कोटरस्थेन वृक्षाः, त्वामद्य याता शरणम् शरण्यम् यः साधितो वृत्तिकरः पतिर्नः, तन्नो भवानी हतुरातवेन्नम् क्षुदार्दितानाम् नरदेवदेव, यावन्ननङ्क्ष्यामः उज्जितोर्जा वार्तापतिस्तम् किल लोकपालः। मैत्रेय उवाच, पृथुप्रजानाम् करुणम् निशम्य परिदेवितम्, दीर्घम् दध्यौ कुरुश्रेष्ठ निमित्तम् सोऽन्वपद्यत इति व्यवसितो बुद्ध्या प्रगृहीत शरासनः, सन्दधे विशिखम् भूमेः क्रुद्धस्त्रिपुरः यथा, प्रवेपमाना धरणि निशाम्योदायुधम् च तम्, गौ सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता, तामन्वधावत् तद्वैन्यः कुपितोऽत्यरुणे क्षणः, शरम् धनुषि सन्धाय यत्र यत्र पलायते, सा दिशो विदिशो देवी रोदसी चान्तरम् तयोः, धावन्ति तत्र तत्रैनम् ददर्शानूद्यतायुधम्, लोकेनाविन्दतत्राणम् वैन्यान् मृत्योरिव प्रजाः, त्रस्ता तदा निववृते हृदयेन विदूयता। उवाच च महाभागम् धर्मज्ञापन्नवत्सल, त्राहि मामपि भूतानाम् पालने वस्थितो भवान्, सत्त्वम् जिगांससे कस्माद्दीनाम कृतकिल्बिषाम्, अहनिष्यत् कथम् योषाम् धर्मज्ञ इति यो मतः, प्रहरन्ति न वै स्त्रीषु कृतागस्वपि जन्तवः, किमु तत्त्वद्विधा राजन् करुणादीनवत्सलाः, माम् विपाट्या जराम् नावम् यत्र विश्वम् प्रतिष्ठितम्, आत्मानम् च प्रजाश्चेमाः कथमम्भसि धास्यति। पृथुरुवाच, वसुधे त्वाम् वधिष्यामि मच्छासनपराङ्मुखीम्, भागम् बर्हिषि या वृङ्क्ते न तनोति च नो वसु, यवसम् जघ्यनुदिनम् नैव दोग्ध्यौधसम्पयः, तस्यामेवम् हि दुष्टायाम् दण्डो नात्र न शस्यते, त्वम् खल्वोषधि बीजानि प्राक् सृष्टानि स्वयम्भुवा, न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधीः, अमूषाम् क्षुत्परीतानामार्तानाम् परिदेवितम् शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेधसा, पुमान् योषिदुतक्लीब आत्मसम्भावनोधमः, भूतेषु निर्नुक्रोशो नृपाणाम् तद्वधो वधः, त्वाम् स्तब्धाम् दुर्मदाम् नीत्वा मायागाम् तिरसशरैः आत्मयोगबलेनेम धारयिष्याम्यहम् प्रजाः, एवम् मन्युमयीम् मूर्तिम् कृतान्तमिव बिभ्रतम् प्रणता प्राञ्जलि प्राह मही सञ्जातवे पथुः। धरोवाच, नमः परस्मै पुरुषाय मायया विन्यस्तनातनवे गुणात्मने, नमः स्वरूपानुभवेन निर्धुत द्रव्यक्रियाकारक विभ्रमोर्मये, येनाहमात्मा यतनम् विनिर्मिता धात्रायतोऽयम् गुणसर्गसङ्ग्रहः, स एव माम् हन्तुमुदायुधस्वरादुपस्थितोऽन्यम् शरणम् कमाश्रये, य एतदादा वसृजच्चराचरम् स्वमाययात्माश्रयया वितर्क्यया, तयैव सोऽयम् किल गोप्तुमुद्यतः कथम् नु माम् धर्मपरो जिघांसति, नूनम् बतेशस्य समीहितम् जनैस्तन्मायया दुर्जयया कृतात्मभिः, न लक्ष्यते यस्वकरोदकारयत् योऽनेक एक परतश्च ईश्वरः, सर्गादियोऽस्यानुरुणद्धि शक्तिभिर्द्रव्यक्रियाकारकचेतनात्मभिः, तस्मै समुन्नद्ध निरुद्धशक्तये नमः परस्मै पुरुषाय वेधसे, स वै भवानात्मविनिर्मितम् जगद्भूतेन्द्रियान्तः करणात्मकम् विभो, संस्थापयिष्यन्नजमां रसातलादभ्युज्जहाराम्भसादिसूकरः अपामुपस्थे मैनाव्यवस्थिताः प्रजा भवानद्यरिरक्षसु किल सवीरमूर्तिसमभूद्धराधरो यो मां पयस्युग्रशरो जिघांसति नूनं जनैरिहितमीश्वराणामस्मद्विधैस्तद्गुणसर्गमायया न ज्ञायते मोहितचित्तवर्त्मभिस्तेभ्यो नमो वीरयशस्करेभ्यः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुविजये धरित्रीनिग्रहो नाम सप्तदशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।